देवम्बो अद्य स पिता रमेशे भगम् जरत्रम् विभजन्तमायो आवान्नरापुरुभुजावृत्याम् दिवे दिवे चिदश्विना सखीयन् प्रतिप्रजानयमसूरस्य विद्वान् सूक्तैर्देवम् स पितारम् दुभस्य उपब्रवीदनमसा विजानन् ज्येष्ठम् चरत्रम् विभजन्तमायोः अदत्र जातयते वार्याणि पूषा भगो अतिनिर्वस्तपुश्रः इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्तदस्माः तन्नो अनर्वास पितावरूतम् तत्सिन्धवयिषयन्तो अनुग्मन् उपयद्वोचे अध्वरस्य होता राजस्यामपदयो वाजरत्नाः प्रजेव सोऽभ्ययैव राणमो दुर्ये मित्रे वरुणे सूक्तवाचः अवै त्वभ्वम् कृणुतावरीयो दिवः पृथिव्योरवसावदेम